सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत वर्गः आरम्भम् इदानीम्. अत्र गतसप्ताहे अथवा तस्य पूर्वं कूपः कस्य इति कथां किञ्चित् वयं पठितवन्तः. तत्र कोऽपि वक्तुमिच्छति वा? प्रथमपरिच्छेदः अपि द्वितीयपरिच्छेदः किञ्चित् लिखन्तु इति गृहपाठः आसीत्. कः वक्तुमिच्छति? सरलभगिनी वदतु भगिनि.
ओके. कूपकस्य काचन वृद्धा कस्मिन् ग्रामे तस्मिन् गृहे अनिवसत्. गृहस्य निकटे एकः कूपः आसीत्. सा वृद्धा स्वयं प्रतिदिनं कूपं गत्वा तस्मात् जलम् आनीतवती. गृहाणि कार्याणि अपि कृतवती च. तस्याः भैरवः नाम एक दुष्ट प्रतिवेशी आसीत्. भैरव अन्येभ्यः पीडां दत्तुं सन्तुष्टः अनुभूतवान्. तस्य सेवकाः अपि दुष्टाः आसन्.
सेवकाः
किञ्चित् कालानन्तरं सः वृद्धयाः कूपस्य जलम् उपयोगम् आरब्धवान्. शनैः शनैः उपयोगं कृत्वा सः कूपं स्वस्य अमन्यत. सः वृद्धयाः न केवलं कूपस्य जलं स्वीकृत्य किन्तु कूपस्य निकटे आगमनाय अपि निषेधितवान्. तस्य सेवकाः अपि दुष्टा.
उक्तवती.
अतः अन्यग्रामजनाः तस्मात् भीता आसन्. कूपस्य जलं न उपयोगं कर्तुम् अपि कूपः दुष्टेन वशीकृत वृद्धा कष्टम् अनुभूतवती. सः पानजलम् अपि अन्य आश्रयात् कूपात् स्वीकृतवती. अतः साधुः राजधानीं गत्वा राजानं प्रति तस्या समस्या प्रकटीकृतवती च. निवारणाय निवेदनं कृतवती.
अन्तिमवाक्यम् अहं न श्रुतवान् भगिनि.
राजा ताम् अवदत् अहं चिन्तनं करिष्यामि इति तां ततः प्रेषितवान्.
हा, समीचीनं भगिनि, बहु समीचीनम् अस्ति. अग्रे का पठितुम् इच्छति? भानुभगिनी वा अथवा सन्ध्या भगिनी?
पृच्छामि महोदय.
अस्तु भगिनि,
चतुरा वाक्यानि लिखितवती. एका वृद्धा कस्मिन् ग्रामे निवसति. सा गृहस्य समीपे कूपः अस्ति.
तस्याः गृहस्य समीपे
कूपः अस्ति. सा वृद्धा कूपे जलं पिबति, वस्त्राणि क्षालयति अपि स्म.
किन्तु तत्र अस्ति चेत् अहं गृहे पिबामि इत्युक्ते अहं गृहे अस्मि, गृहे जलं पिबामि इति भवति. कूपे जलं पिबामि इत्युक्ते सा कूपे अस्ति, तत्र जलं पिबति इति भवति. तद् नास्ति खलु?
अवश्यं महोदय.
कूपस्य जलं पिबति.
कूपस्य जलं पिबति, वस्त्राणि क्षालयति स्म. भैरवः एकः दुष्टः स्वभावात् अस्ति. पर्याप्तं महोदय.
समीचीनं भगिनि, बहु समीचीनमस्ति भगिनि, चिन्ता मास्तु, समीचीनमस्ति. भवती यत् तद् तत्र कर्तुं शक्नोति तदेव, चिन्ता मास्तु, समीचीनमेव अस्ति. अस्तु,
धन्यवादः.
अग्रे सन्ध्या भगिनी पठति वा?
अहं न लिखितवती, परन्तु अहं वक्तुं शक्नोमि.
अस्तु भगिनि, वदतु वदतु.
तर्हि कस्मिंश्चित् एकः ग्रामः अस्ति, तस्मिन् ग्रामे वृद्धा अस्ति.
समीचीनं.
तस्याः कूपः तस्याः पार्श्वे कूपः अस्ति. परन्तु ग्रामे एकः एकः पुरुषः अस्ति, तस्य नाम भैरवः. सः सज्जनः नास्ति. सः सः कूपं स्वीकृतवान्, परन्तु अनुमति न पृष्टवान्,
न दत्तवान् अनुमतिं, कूपस्य कूप उपयोगस्य अनुमतिं न दत्तवान्, अथवा कूपस्य अनुमतिं न दत्तवान्. हा, समीचीनं भगिनि. हा, अग्रे.
तर्हि एकदिनं महिला वृद्धा राजानं कृतवती, सहायार्थं.
समीचीनं.
सः उक्तवान् आं, यदि शक्नोमि सहायं ददामि.
हा, सहायम् अहं ददामि. समीचीनं भगिनि, बहु समीचीनम् अस्ति. हा, भवती तस्मिन् दिने नासीत् खलु अत्र वर्गे, किन्तु
अहं पठितवती.
पठितवती, समीचीनं भगिनि, बहु समीचीनम् अस्ति. हा, उत्तमं. हा, अग्रे भानुभगिनी पठति वा?
महोदय, अहं गृहपाठं न कृतवती.
हरिमहोदय कृतवान् वा?
आं महोदय.
अस्तु,
एकः
चिन्ता मास्तु. हा, चिन्ता मास्तु भानुभगिनि. हा, हरिमहोदय पठतु. हा,
एकः ग्रामम् आसीत्, ग्रामे
अथवा ग्रामः एकः ग्रामः
एकः ग्रामः आसीत् ग्रामे ग्रामे काचित् वृद्धा निवसति. वृद्धस्य गृहस्य पार्श्वे कश्चन कूपः आसीत्.
तत्र वृद्धायाः वृद्धायाः इति
वृद्धायाः
वृद्धायाः गृहस्य
सा वृद्धा दिने दिने कूपात् जलम् आनीयं करोति. वृद्धा गृहस्य पार्श्वे भैरवः नामः दुष्टः वसति. सः ग्रामः ग्रामजनाः सदा पीडति.
हा, सः ग्रामजनान् इति भवति तत्र.
ग्रामजनान्
वचने अस्ति. हा, महान् इति तत्र बहु ग्रामजनान्. हा,
एतस्य कूपः स्वस्य इति भैरवः सदा वदतवान्
उक्तवान्. हा, एतस्याः कूपः मम अथवा स्वस्य इति सः उक्तवान्. उक्तवान्, समीचीनं. हा,
भैरवः वृद्धायै कूपस्य समीपे आगच्छति न अनुमतिं दत्तवान्.
आगन्तुम् इति भवति तत्र आगच्छति रूपं आगन्तुम् इति अस्ति. समीचीनं वाक्यं समीचीनम् आगन्तुम् अनुमतिं
न दत्तवान्
समीचीनं.
भैरवस्य सेवकाः अपि दुष्टाः आसन्. यदा भैरवः कूपं वशीकृतं करोति तदा वृद्धस्य कष्टम् आरब्धम् भवति. वृद्धा राजानं गतवती एवं भैरवस्य विषमकर्मं निवेदयति.
निवेदितवती. समीचीनं.
अहं त्वं गृहे आगच्छामि परं कूपं कस्य इति परिचयामि इति राजानं वदति.
राजा वदति. समीचीनं महोदय, बहु समीचीनम् अस्ति. नूतनरूपम् अपि भवान् उपयोगं कृतवान्, तत् कथम् इति करणीयमिति अग्रे पश्यामः, किन्तु बहु समीचीनमस्ति महोदय.
धन्यवादः महोदय.
बहु समीचीनमस्ति. रघुपति महोदय, भवान् अपि वक्तुम् इच्छति वा?
हा महोदय. कुत्र वयम्
अत्र गृहपाठः आसीत् कूपः कस्य इति, तस्मिन् विषये किञ्चित् लिखतु. किञ्चित् लिखतु इति.
पठितवान्
सन्तोषः. चिन्ता मास्तु महोदय. चिन्ता मास्तु. अस्तु, सर्वे उक्तवन्तः इति मन्ये, अतः अग्रे गच्छामः. सर्वे अवगतवन्तः इति मन्ये. प्रथमपरिच्छेदः अपि द्वितीयपरिच्छेदः कः विषयः इति तत्र प्रेषितवान् तावत् वयं कृतवन्तः. राजा अहं विचारयिष्यामि इति उक्त्वा तां ततः प्रेषितवान्. ताम् इत्युक्ते वृद्धां, ततः इत्युक्ते राजधानी अस्ति, राजप्रासादः पालेस् इति अस्ति, ततः प्रेषितवान्. अस्तु, इदानीम् अग्रे गच्छामः. इदानीं वृद्धा तस्याः ग्रामं प्रति गतवती, रिटर्न्ड् प्रति गतवती तस्याः ग्रामं वृद्धा. इदानीं राजा किं करोति इति पश्यामः. गुप्तचर अस्तु, कः पठति? भानुभगिनी पठति वा अग्रे? गुप्तचर.
आं महोदय. गुप्तचरद्वारा राजा ज्ञातवान् यत् वृद्धायाः वृत्तान्तं सत्यम् इति. अतः अनन्तरदिने सः तं ग्रामं गत्वा वृद्धायाः गृहं विचार्य तस्याः कूपसमीपं गत्वा स्थितवान्. तस्य आगमनं ज्ञात्वा बहवः जनाः अपि तत्र उपस्थिताः. परितः अवलोक्य राजा उच्चैः उक्तवान्, एषः कूपः कस्य? अहम् एषु दिनेषु ज्ञातवान् यत् एतस्मिन् कूपे महती सम्पत् आसीत् इति. अतः एषः कस्य इति अहं ज्ञातुम् इच्छामि इति.
समीचीनं भगिनि. अन्यदपि एकं कुर्मः. कः? रघुपति महोदय अग्रे पठति वा? सर्वे ग्रामजनाः इति तस्य आरभ्य अग्रिमपरिच्छेदः अपि अनुभोक्तव्यः भवेत् इति. तावत्.
ओके ओके. अस्तु, सर्वे ग्रामजनाः उक्तवन्तः एषः कूपः इदानीं भैरवस्य जातः अस्ति इति. राजा भैरवं कोपेन पश्यन् अवदत्, भोः कूपे स्थिता सम्पत्तिः क्व गता? तां भवान् एव स्वीकृतवान् स्यात्, भवतः पिता वा स्वीकृतवान् स्यात्। कूपादिषु विद्यमाना सम्पत् राजकोषाधीनं स्यात्, अतः सा सम्पत्तिः भवता इदानीम् एव अर्पणीया, अन्यथा कारागृहवासः अनुभोक्तव्यः भवेत् इति। एतत् श्रुत्वा भीतः
तावत् समीचीनं महोदय। अस्तु, इदानीं पङ्क्तिशः पश्यामः किं किम् अस्ति अत्र इति। तत्र किम् अस्ति, गुप्तचरद्वारा गुप्तचरद्वारा राजा ज्ञातवान् यत् वृद्धायाः वृत्तान्तं सत्यम् इति। तत्र वाक्यं किम् अस्ति इति पश्यामः। राजा ज्ञातवान्, राजा अस्ति, सः किमपि ज्ञातवान्। किं ज्ञातवान्? वृद्धायाः वृत्तान्तं सत्यम् इति ज्ञातवान्। वृद्धायाः वृत्तान्तं सत्यम् इति ज्ञातवान् राजा, सत्यम् इति ज्ञातवान्। किं वृत्तान्तं? कस्य वृत्तान्तं? वृद्धायाः वृत्तान्तं। वृत्तान्तम् इत्युक्ते यः यद् विषयं वृद्धा उक्तवती भैरवस्य विषये, तत्सर्वं सत्यमेव, तद् वृत्तान्तं, वृद्धायाः वृत्तान्तं सत्यम् इति राजा ज्ञातवान्। कथं स राजा ज्ञातवान् एतद् विषयं? गुप्तचरद्वारा ज्ञातवान्। गुप्तचरद्वारा इत्युक्ते गुप्तचरः इत्युक्ते कः? कोऽपि वदति वा? गुप्तचर इण्टेलिजेन्स्, स्पैस्। चर इत्युक्ते मूविङ्ग्, गुप्त इन् सीक्रेट्, गुप्तचर, गुप्तचरद्वारा बै मीन्स् आफ् डन्, गुप्तचरद्वारा राजा वृद्धायाः वृत्तान्तं सत्यम् इति ज्ञातवान्। अतः अनन्तरदिने तत्र विकल्पः अस्ति, चाय्स् अस्ति, डिपेण्डिङ्ग् अपान् सर्कम्स्टेन्स्, तत् अग्रिमे दिने भवितुमर्हति अथवा किञ्चित् समयानन्तरम् अथवा अग्रिमदिने न, तस्य अनन्तरदिनं वा। किन्तु बहुकालानन्तरं न, एकदिनं वा दिनद्वयं वा, तदनन्तरं राजा सः तं ग्रामं गत्वा, किं ग्रामं गत्वा? वृद्धायाः ग्रामं गत्वा वृद्धायाः गृहं विचार्य, वृद्धायाः गृहं कुत्र अस्ति इति तत्र विचारणं कृत्वा राजा किं कृतवान्? वृद्धायाः तस्याः कूपसमीपं, वृद्धायाः कूपसमीपं गत्वा राजा वृद्धायाः कूपसमीपं तत्र आगतवान्, तत्र गत्वा स्थितवान्, तत्र एव अस्ति इदानीं राजा, वृद्धायाः कूपस्य समीपे इदानीं राजा अस्ति। तस्य आगमनं, तस्य इत्युक्ते कस्य इदा अत्र?
भैरवस्य
न, तस्य आगमनम् इति अस्ति।
कः
राजा आगतवान् तत्र? तत्र महाराजस्य इति वक्तुं शक्नुमः, राजा इति तस्य षष्टिविभक्तिः किञ्चित् क्लिष्टः अस्ति, राज्ञा इति भवति, राज्ञः इति, किन्तु महाराजस्य इति वक्तुं शक्नुमः तत्र। महाराजस्य आगमनं, महाराजस्य आगमनं ज्ञात्वा बहवः जनाः अपि तत्र उपस्थिताः, राजा आगतवान् इति श्रुत्वा अनेकजनाः तत्र आगतवन्तः। परितः अवलोक्य, परितः इत्युक्ते पृष्ठतः न, पुरतः न, सर्वदिशु, परितः सरौण्डेड्, सो सरौण्डेड् बै इति, परितः अवलोक्य, अवलोक्य इत्युक्ते दृष्ट्वा, परितः अवलोक्य राजा उच्चैः उक्तवान्, एषः कूपः कस्य? अहम् एषु दिनेषु ज्ञातवान् यत् एतस्मिन् कूपे, एषः कूपः अस्ति, तस्य सप्तमी विभक्ति इति वदामः, एतस्मिन् कूपे, कूपः अस्ति, एषः अस्ति, एषः कूपः, तस्य षष्टि सप्तमी विभक्ति वदामः, एतस्मिन् कूपे, एतस्मिन् कूपे किम् अस्ति? महती सम्पत् अस्ति आसीत् इति। तत्र बहु सम्पत् अस्ति इति अहम् इदानीमेव ज्ञातवान्। एषु दिनेषु अद्य वा ह्यः वा परह्यः वा अहं ज्ञातवान् एतस्मिन् कूपे महती सम्पत् अस्ति इति अहं ज्ञातवान्। अतः एषः कूपः कस्य कूपः इति अहं ज्ञातुम् इच्छामि इति राजा उच्चैः पृष्टवान्। परितः अवलोक्य सर्वत्र दृष्ट्वा बहवः जनाः तत्र सन्ति, तान् दृष्ट्वा राजा एतत् उक्तवान्, एषः कूपः कस्य, तस्मिन् कूपे एतस्मिन् कूपे महती सम्पत् अस्ति, अत्र अहं ज्ञातुम् इच्छामि एषः कस्य कूपः इति। सर्वे ग्रामजनाः तत्र तावत्पर्यन्तं प्रश्नः अस्ति वा?
एकं प्रश्नः अस्ति महोदय, आसीत् अस्ति इत्यस्य
आसीत् 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 एव समीचीनमस्ति, अहम् अस्ति इति उक्तवान्, आसीत् एव समीचीनमस्ति, धन्यवादः महोदय। आसीत् इदानीं नास्ति, आसीत् आसीत् भूतकालरूपं, इदानीं नास्ति, इदानीं नास्ति, तत्र सम्पत् नास्ति, किन्तु एकस्मिन् काले आसीत्, तत्र आसीत्, इदानीम् अस्ति न वा इति एतत् न जानीमः, किन्तु अत्र तत्र आसीत् इति आसीत् भूतकालरूपम् अस्ति। अन्य प्रश्नः अस्ति वा? अस्तु, अग्रे गच्छामः। सर्वे ग्रामजनाः उक्तवन्तः, अनेकाः जनाः तत्र सन्ति खलु, ते सर्वे उक्तवन्तः किम् एषः कूपः इदानीं, पूर्वं न किन्तु इदानीम् एषः कूपः भैरवस्य जातः अस्ति इति। इदानीम् एषः कूपः भैरवस्य इति ते सर्वे उक्तवन्तः। अस्तु, राजा किं कृतवान्? अग्रे राजा भैरवं कोपेन पश्यन् अवदत्। राजा भैरवं दृष्टवान्, केवलं न दृष्टवान्, कोपेन दृष्टवान्, दृष्ट्वा प्रश्नमपि पृष्टवान्। अतः कोपेन पश्यन् सः पश्यति, तस्मिन् काले एव सः राजा अपि वदति एतत् यद् कार्यद्वयम् एकस्मिन् काले भवति तत्र एतद् रूपं भवति, पश्यन् अवदत् अथवा पश्यन् गच्छन् खादति इति तादृश। अग्रे पश्यामः एतद् रूपं कथं भवति इति। पश्यन् अवदत्, सः पश्यति, तस्मिन् काले एव सः वदति, पश्यन् अवदत्। किं वदति राजा? भोः, कूपे स्थिता सम्पत्तिः, तत्र क गता इति अस्ति, अहं तत्र प्रायशः मुद्रणदोषः अस्ति इति अहं चिन्तयामि, कुत्र गता?
क्व क्व महोदय,
क्व अस्ति वा? अस्तु अस्तु, अहं धन्यवादः महोदय, क्व क्व तु कुत्र, अस्तु, क्व गता, अत्र कुत्र गता इति। तां भवान् एव, भवान् एव स्वीकृतवान् स्यात्। ताम्, ताम् इत्युक्ते सम्पत्तिः, सम्पत्तिः कीदृशपदं कोऽपि वदति वा? सम्पत्तिः गता इति अस्ति, स्त्रीलिङ्गपदम् अस्ति, अतः एव ताम्, ताम् इति अस्ति, ताम् उपरि उपरि अन्यत् पदमस्ति, सम्पत् इति अस्ति, तत् पदं भिन्नम् अस्ति। सम्पत् इति अहं चिन्तयामि तत् पुल्लिङ्ग अथवा नपुंसकलिङ्गशब्दः इति चिन्तयामि, सत्यं, किन्तु प्रायशः, किन्तु सम्पत्तिः इकारान्तस्त्रीलिङ्ग, मतिशब्दवत् अस्ति तद् सम्पत्, तत्तु तकारान्तशब्दः अस्ति, तद् अपि स्त्रीलिङ्गः अस्ति, किन्तु सम्पत्तिः शब्दः तत्र भेदः अस्ति। सम्पत् अपि सम्पत्तिः समानार्थकपदं, किन्तु सम्पत्तिः इकारान्त स्त्रीलिङ्गः, तत्र सम्पत् इति तकारान्त। अहं चिन्तयामि प्रायशः सरित् शब्दवत् इति मन्ये,
अस्तु,
तकारान्तस्त्रीलिङ्गशब्दः, तत् गीतासोपानि द्वितीयभागे हलन्तशब्दस्य परिचयः भवति. अत्र सम्पत्तिः इति स्वीकुर्मः इदानीं, सम्पत्ति इति त्यजामः, सम्पत्तिः इति स्वीकुर्मः.
सम्पत्ति महोदय, सम्पत्ति स्त्रीलिङ्गपद अस्ति. अहं स्पोकन् संस्कृत तत्र दृष्टवान्.
सम्पत्तिः स्त्रीलिङ्ग, सम्पत्तिः मतिशब्दवत् अस्ति, स्त्रीलिङ्गशब्दः अस्ति. आमामां, सम्पत्ति मतिशब्दवत् अस्ति, मतिशब्दवत् दीर्घैकारान्त न, नदी शब्दवत् न, मति मतिशब्दवत् अस्ति. तिथिः तिथिः, मतिः, बुद्धिः, सम्पत्तिः, स्त्रीलिङ्गशब्दः अस्ति. एकवचने अस्ति
पर्यायशब्दः वा सम्पत्ति, सम्पत्
सम्पत् सम्पत्तिः समानार्थकशब्दः. किन्तु सम्पत्तिः इकारान्तशब्दः अस्ति, ह्रस्व इकारान्तशब्दः अस्ति. सम्पत् इति तकारान्तशब्दः अस्ति इति मन्ये. सरित् सरित् शब्दवत् इति मन्ये. तत्र द्रष्टव्यमस्ति, किन्तु तद् इदानीं तद् तकारान्त इति चिन्तयामि. अत्र वयं सम्पत्ति त्यजामः, सम्पत्तिः इति स्वीकुर्मः. सुलभं भवति. एतत् सम्पत् इति शब्दः गीतासोपाने द्वितीयभागे पश्यामः. अस्तु, अतः इदानीं सम्पत्तिः इति स्वीकुर्मः. तां भवान् एव, ताम् इत्युक्ते सम्पत्तिः, सम्पत्तिं भवान् एव स्वीकृतवान् स्यात्. भवतः कूपः अस्ति, कूपे यद् सम्पत्तिः अस्ति तत् प्रायशः भवान् भैरवः, भवान् एव स्वीकृतवान् स्यात् इति राजा वदति. अथवा भवतः पिता वा, भवान् स्वीकृतवान् अथवा भवतः पिता वा स्वीकृतवान् स्यात् इति. अन्य कोऽपि तु स्वीकर्तुं न शक्नुवन्ति इति कृत्वा. कूपादिषु विद्यमाना सम्पत् राजकोषाधीनं स्यात्. यत् सम्पत् कूपादिषु विद्यमाना भवति, कूपे यद् यदि कोऽपि पश्यति अत्र सम्पत्तिः अस्ति, अथवा नदी अथवा अन्ये स्थाने यदि सम्पत्तिः अस्ति चेत् राजाय धनं राजानं गत्वा एतत् अहम् अत्र आसीत् अतः अहम् एतत् आनीतवान् इति उक्त्वा राजानं राजाय महाराजाय दानं करोति. राजा राजाय राज्ञस्य चिन्तनं भवति, एषा सम्पत्तिः कस्य इति. किन्तु अन्यजनाः एतत् कर्तुं न शक्नुमः. यदि सम्पत्तिः अस्ति चेत् एतत् सम्पत्तिः मम इति चिन्तनं न कर्तुं तत्तु समीचीनं नास्ति खलु इति तत्र राजा वदति. अतः सा सम्पत्तिः भवता इदानीम् एव अर्पणीया. यदि भवान् स्वीकृतवान्, भवान् किं करणीयम् इदानीम्? एतत् अर्पणीयां. सा सम्पत्तिः भवता इदानीम् एव अर्पणीया. अन्यथा कारागारवासः अनुभोक्तव्यः भवेत् इति. नो चेत् किं भवति, भवान् कारागारं गच्छति, तत्र बहुकालं तत्र एव भवान् वासम् अनुभवति इति राजा वदति. अत्र प्रश्नः अस्ति वा
महोदय?
वदतु महोदय, वदतु. हरि महोदय, अन्य कोऽपि प्रश्नः अस्ति वा?
म्यूट्
हा महोदय.
हा हा हा
द्वितीयवाक्ये अहं न शक्नोमि.
कुत्र महोदय?
तां भवान् एव स्वीकृतवान् स्यात्, भवतः पिता वा स्वीकृतवान् स्यात् इति अर्थं?
तत्र अर्थः किम् इत्युक्ते ताम् ताम् इत्युक्ते सम्पत्तिः, स्वीकृतवान् स्वीकृतवान् इत्युक्ते टेकन्, अहं पुस्तकं स्वीकरोमि, ऐ टेक् अ बुक्. तत्र वा इति अस्ति खलु, तत्
आर्
इति, आर् इति भवति.
भवान् एव,
भवान् ओन्लि यु, भवान् एव
ओन्लि यु
स्वीकृतवान् स्यात्. सो ओन्लि यु कुड् हेव् टेकन् दट् ट्रेजर् or your father could have taken the treasure.
Oh,
tam bhavan eva svikritavan syat. Syat iti tatasya rupam kim iti pashyama. So it etat lat lakara nasti, present tense nasti,
bhuta
conditional, conditional asti, conditional. You might have, it could have been taken only by you, might have been tadrusha rupam asti. Syat bhavatah pita va svikritavan syat. यदि भवान् पृच्छति रामः कुत्र अस्ति, ओ रामः प्रायशः विद्यालये स्यात् इति भवति. तद् स्यात् इत्युक्ते अहं न जानामि, किन्तु रामः प्रायशः विद्यालये, तादृशरूपम् अस्ति. भवान् एव स्वीकृतवान् स्यात् अथवा भवतः पिता स्वीकृतवान्, अन्य कोऽपि तु न स्वीकृतवान्.
समीचीनं.
किमर्थं, किमर्थं कूपः भवतः एव इति? इदानीं
महोदय,
अस्तु, अन्य प्रश्नः अस्ति वा? अस्तु, अग्रे सन्ध्या भगिनी पठति वा?
एतत् श्रुत्वा भीतः भैरवः झटिति, एषः कूपः मम न, एषः कूपः एतस्याः वृद्धायाः एव इति उक्तवान्. सत्यम् उच्यते खलु भवता, राजा पुनः अपृच्छत्. अहं सत्यमेव वदामि महाराज, एषः कूपः एतस्याः वृद्धायाः एव इति अवदत् भैरवः.
अग्रे रमाजयन्ति भगिनी पठति वा?
आं महोदय, एकं निमिषम्. अस्तु नाम इति तम् उक्त्वा राजा वृद्धां पश्यन् अवदत्, एषः भैरवः सर्वेषां पुरतः अङ्गीकृतवान् अस्ति यत् एषः कूपः भवत्याः इति. इतः परं भवती एतस्य उपयोगं करोतु क्लेशं विना. यदि एषः पुनः कामपि पीडां दातुम् उद्यतः भवेत् तर्हि अस्मदीयान् जनान् भवती सूचयतु, ते एतं निग्रहीष्यन्ति इति.
निग्रहीष्यन्ति इति, समीचीनं, निग्रहीष्यन्ति एव.
एव चातुर्येण न्यायनिर्णयम् एवं चातुर्येण न्यायनिर्णयं कृतवतः राङ्गः नाम
राज्ञः, राज्ञः
राज्ञः नाम रणजितसिंह इति, इति सः पञ्जाबस्य शासकः आसीत्. एतस्य शासनकाले एव अमृतसरीस स्थितः अमृतसरसि स्थितः सुवर्णालयः निर्मितः.
समीचीनं भगिनि,
धन्यवादः.
अत्र किमस्ति इति पश्यामः. एतत् श्रुत्वा भीतः भैरवः, भैरवस्य इदानीं बहु भयमस्ति, यदि कारागारं गच्छामि इति सः चिन्तयित्वा सः भैरवम् भयम् अनुभवति, सः झटिति, झटिति इत्युक्ते इमिडियट्लि, हा तदेव क्षणे सः उक्तवान्, किम् उक्तवान्, एषः कूपः मम न, एषः कूपः एतस्याः वृद्धायाः एव इति उक्तवान्। राजा इदानीं पृच्छति, सत्यम् उच्यते खलु भवता, अथवा तत् कर्मणि रूपे अस्ति, भवान् सत्यं वदति खलु इति राजा पुनः पृच्छति, भैरवं पृच्छति। अहं सत्यमेव वदामि महाराज, एषः कूपः एतस्याः वृद्धायाः एव इति अवदत् भैरवः। इदानीं भैरवः स्वीकरोति, यः कूपः अत्र अस्ति सः कूपः, एषः कूपः तु वृद्धायाः एव इति। अतः अग्रे किं भवति, अस्तु नाम इति तम् उक्त्वा, तम् उक्त्वा इत्युक्ते भैरवम् उक्त्वा, अस्तु इति, अस्तु नाम इति तम् उक्त्वा, ओके अस्तु इति उक्त्वा, राजा वृद्धां पश्यन्, वृद्धां पश्यति, तस्मिन् समये एव वदति, किं वदति, एषः भैरवः सर्वेषां पुरतः, सर्वे जनाः सन्ति तेषां पुरतः भैरवः अङ्गीकृतवान्, अङ्गीकृतवान्, किम् अङ्गीकृतवान् अस्ति, यत् एषः कूपः भवत्याः इति, एषः कूपः वृद्धायाः कूपः, एषः कूपः मम न इति सः भैरवः, एषः भैरवः अङ्गीकृतवान् अस्ति, सः उक्तवान्। इतः परम्, इदानीम् इतः परम् इत्युक्ते अद्यारभ्य, इदानीम्, इदानीम् अपि अग्रे, अग्रे गत्वा किम्, इतः परं भवती एतस्य उपयोगं करोतु क्लेशं विना, एतस्य इत्युक्ते कूपस्य उपयोगं भवती कर्तुं शक्नोति, तत्र क्लेशः नास्ति, कष्टं नास्ति, अन्य कोऽपि न आगच्छति, एषः भैरव तु तत्र आगत्य भवती एतस्य उपयोगं मा करोति इति तु न वक्तुं शक्नोति, अतः क्लेशः नास्ति, क्लेशं विना भवती एतस्य कूपस्य उपयोगं कर्तुं शक्नोति इति राजा वदति। यदि एषः भैरवः पुनः कामपि पीडां दातुम् उद्यतः, कामपि इत्युक्ते काम् प्लस् अपि, तत्र काम् इति स्त्रीलिङ्गे अस्ति, कामपि पीडां दातुम् उद्यतः, उद्यतः इत्युक्ते किं कोऽपि वदति वा, उद्यतः दातुम् उद्यतः, उत्सुकः, इण्ट्रेस्टेड्, इण्ट्रेस्टेड् इफ् आर् गेट्स् एक्सैटेड् आर् वाण्ट्स् टु डिसैर्स् तादृश दातुं, इफ् हि स्टार्ट्स् टु गिविङ्ग् स्टार्ट्स् गिविङ्ग् ट्रबल् टु एनिबडि एल्स् भवेत्। यदि एषः पुनः कामपि पीडां दातुम् उद्यतः भवेत् तर्हि अस्मदीयान् जनान्, अस्मदीयः इत्युक्ते अवर्, अस्मदीयान् जनान्, बहुवचने अस्ति, द्वितीय द्वितीयविभक्तिरूपम् अस्ति, अस्मदीयान् जनान् भवती सूचयतु, सो टाक् टु मै पीपल्, ते एतं निग्रहीष्यन्ति, सो दे विल् क्याच् होल्ड् आफ् हिम्, दे विल् मेक् कण्ट्रोल् हिम्, निग्रहीष्यन्ति इति राजा वृद्धां वदति। एवम्, एवम् इत्युक्ते एवं चातुर्येण, हा इन् दिस् वे, चातुर्येण वित् क्लेवर्नेस् न्यायनिर्णयं कृतवतः राज्ञः नाम रणजितसिंहः इति। तत्र राज्ञः नाम, भवतः नाम, राज्ञः नाम षष्टिविभक्ति इति वदामः, कृतवतः तदपि षष्टिविभक्ति एव अस्ति, कृतवान् इति अस्ति, कृतवान् इति प्रथमविभक्ति, भवान् इति, भवान् भवान् इति अस्ति, किन्तु भवतः नाम इति वदामः खलु, तादृश कृतवतः नाम किं, कृतवतः राज्ञः नाम रणजितसिंहः इति भवति। सः पञ्जाबस्य शासकः आसीत्, राजा आसीत् पञ्जाब प्रदेशस्य राजा आसीत् एतस्य शासनकाले एव अमृतसरसि अमृतसरस् अस्ति खलु अमृतसरसि स्थितः सुवर्णालयः निर्मितः यत् सुवर्णालयः अमृतसरसि अस्ति तस्य निर्माणम् एतस्य शासनकाले एव कृतं तस्य निर्माणम् इति अन्तिमवाक्यम् अस्ति हा अस्तु तत्र किं प्रश्नः अस्ति वा कथायाः अवगमनम् अस्ति वा
आं महोदय
अस्तु हा अस्तु अत्र किञ्चित् प्रश्नः अस्ति वा अत्र कोऽपि तत्र रूपः किञ्चित् क्लिष्टवाक्यम् अस्ति किञ्चित् सरलवाक्यमपि अस्ति रूपं किं किम् अस्ति इति अग्रे तु पश्यामः तत्तु सत्यं गीतासोपानस्य प्रथमभागे वा अथवा द्वितीयभागे तु पश्यामः किन्तु अवगमनम् अभवत् इति मन्ये अस्तु तत्र किञ्चित् प्रश्नं कुर्मः अस्तु सर्वे उक्तवन्तः अत्र ज्ञातुम् हा गुप्तचरद्वारा राजा इति हा तत्र आरभ्य अस्तु एतत् कुर्मः कः हा सरला भगिनी गुप्तचरद्वारा इति तत्र आरभ्य किञ्चित् पठित्वा वाक्यद्वयम् इति स्वीकृत्य किं किम् अस्ति इति भवत् स्वशब्दैः किञ्चित् वदतु तत्र
अस्तु राजा तस्य गुप्तचरान् विद्या ग्रामे प्रेषितवान् गुप्तचरः राजानं सूचना राज्ञैः सूचना दत्तवन्तः को यापि समस्या वृद्धा उक्तवती तत् सत्यं सा उक्तवती
वृद्धायाः समस्या तत्तु समीचीना एव इति हा सत्यं तत् हा तत् सत्यं तत्र समस्या अस्ति साधु अस्ति इति
विधाय समस्या साधु अस्ति
इति गुप्तचरद्वारा उक्तवन्तः समीचीनं
तदनन्तरं किञ्च कानि दिनानि अनन्तरं राजा स्वयं तत् ग्रामं गतवान् तत्र वृद्धायाः गृहं ज्ञात्वा तत्र कूपं समीपम् आगतवान् राज्ञः आगमनं दृष्ट्वा बहवः ग्रामीणाः तत्र एकत्र
अभवन् आगतवन्तः
राजा तेषां सर्वैः दृष्ट्वा उच्चैः
सर्वान्
दृष्ट्वा उच्चैः पृष्टवान् एषः कूप कस्य अस्ति अहम् ज्ञातुम् इच्छामि कारणं कि बहुदिने पूर्वं तस्मिन् राजकोषस्य सम्पत् आसीत्
सम्पत्तिः आसीत्
महती सम्पत्तिः तत्र आसीत् अत्र ज्ञातुम् इच्छामि अतः अहं दातुम् इच्छामि तस्य कूपः एषः अस्ति इति.
समीचीनं भगिनि, धन्यवादः, बहु समीचीनम् अस्ति. अग्रे भानुभगिनि अग्रे किञ्चित् पठित्वा तत्र सर्वे ग्रामजनाः उक्तवन्तः इति तत् आरभ्य.
आं महोदय,
किञ्चित् वदतु यद् यत् अवगतवती स्वशब्दैः वदतु.
ग्रामजनाः वदन्ति एषः कूपः भैरवस्य इति.
भैरवस्य कूपः इति वदन्ति. समीचीनं.
राजा भैरवस्य पृच्छति,
भैरवं
पृच्छति, भोः कूपे स्थिता सम्पत्ति कुत्र अस्ति इति.
हा, कूपे सम्पत्तिः आसीत्, तत् सम्पत्तिः सा सम्पत्तिः इदानीं कुत्र अस्ति,
कुत्र अस्ति इदानीं, कुत्र अस्ति
इदानीं, कुत्र अस्ति इति स पृच्छति.
पृच्छति भवानेव, भवाने
तत्र इदानीं तत्र सम्पत्तिः नास्ति खलु, इदानीं सम्पत्तिः नास्ति, स्वीकृतवान् अस्ति
इदानीं सम्पत्तिः नास्ति, अतः राजा पृष्टवान् भावनेव, तां भावनेव स्वीकृतवान् स्यात्,
तां सम्पत्तिं भवानेव स्वीकृतवान् स्यात्, नो चेत् भवान् न स्वीकृतवान् चेत् स्वीकृतवान्.
हौ डु यु से शायद्? शायद् इस् अ हिन्दी वर्ड्, करेक्ट्?
स्यात् स्यात् तदेव तदेव स्यात् स्यात्
भैरवं राजा पृच्छवान्
पृष्टवान्
कः भैरवं या
भैरवः स्वीकृतवान् स्यात्, नो चेत् अथवा
भैरवस्य पिता
स्वीकृतवान्
स्यात् इति.
हा, समीचीनं भगिनि, समीचीनं. समीचीनं.
भैरवं so what I want to say is Pairavam has to return the sampatti to the king. So by kupena sampatti,
kupasya
sampatti Pairavam
Pairavam na arpaniya
Is there, I was wondering whether there is any word for arpaniya, substitute that word for, anyway. कारागारवासः अनुभोक्तव्यः भवेत्,
अनुभवति तस्य अनुभवः करणीयं भवति,
करणीयम्,
भवति, करणीयः भवति, कारागारवासः भवान् भवान् कुत्र गच्छति, कारागारं गच्छति, तत्र अनेकदिनवासम् अनुभवं तस्य अनुभवं भवति
भवतः इति दिनं कारागारवासः अनुभोक्तव्य भवेत् इति वदति
इति वदति. समीचीनं, समीचीनं, धन्यवादः. अतः सा सम्पत्तिः भवता इदानीमेव अर्पणीया. या सम्पत्तिः कूपे आसीत् सा सम्पत्तिः भवान् इदानीम् अर्पणं सा सम्पत्तिं तां सम्पत्तिं भवान् इदानीम् एव अर्पणं करोतु. यदि न अर्पणं न करोति, यदि अर्पणं न करोति तर्हि अहं
बहुदिनं
भवन्तं कारागारं प्रेषयामि. समीचीनं वा भगिनि? अर्थम् अवगतवती खलु? अस्तु, अग्रे प्रश्नः अस्ति वा अत्र?
न महोदय.
अस्तु, सन्ध्या भगिनी अग्रे एतत् श्रुत्वा इति. तदारभ्य एतत् श्रुत्वा इत्यारभ्य भैरवः इति तावत् किञ्चित् वदतु.
सः भयेन तृतीयविभक्ति सत्यं वा, भयेन उक्तवान्?
भयेन, भयः इति अस्ति,
भयेन
भीतः, भयेन प्रायशः समीचीनं स्यात्. स्वीकुर्मः इदानीं, चिन्ता मास्तु, वदतु भगिनि.
सः उक्तवान् मम कूपः नास्ति, एतस्याः महिलायाः कूपः, तर्हि राजा उक्तवान् सत्यं वदति वा? इदानीं भैरवः वदति आम् सत्यमेव वदामि, मम कूपः नास्ति.
अत्र भैरवः केवलम् एकवारं न द्विवारं वदति, एषः कूपः मम न, एषः कूपः वृद्धायाः एव इति स अङ्गीकरोति खलु. एषः कूपः मम न, एषः कूपः वृद्धायाः एव इति सः अङ्गीकरोति भैरवः. अस्तु, समीचीनं भगिनि. अग्रे रघुपतिमहोदय अग्रे इति अस्तु नाम इति तदा अस्तु नाम इति निग्रहीष्यन्ति इति तावत्.
यदा यदा भैरवः सत्यं वदति तदा महाराज उक्तवान् महाराज वृद्धां दृष्ट्वा एतत् उक्तवान् भैरवः इदानीं सत्यं वदन् अस्ति, सः तस्य सः वदति एष कूप तस्य एष कूपः तस्य
कूप नास्ति,
तस्य कूप नास्ति, अतः एष कूप एष कूपः भवत्याः एव इति
तत्र भवत्याः एव इति सः वदति,
सः भवत्याः एव वदति, अतः त्वाम् एव एतस्य कूपस्य ओनर् अस्ति
ओनर् इति न किन्तु
भवत्याः
कूपः कूपः एव तस्य उपयोगम्
तस्य उपयोगं विना क्लेशं तस्य सर्वदा त्वया विना क्लेशेन कर्तुं तस्य
उपयोगं
शक्नोति
भवती कर्तुं
शक्नोति यदि पुनः भैरवः किमपि पीडां दातुं दातुम् उद्युक्तः
पीडां करोति
तर्हि मां सूचयतु अहं मम सैनिकान् प्रेषित्वा तस्य दण्डनं करोमि इति
समीचीनं मां सूचयतु अहं सैनिकान् प्रेषयामि ते दण्डं कुर्वन्ति अथवा ते निग्रहणं कुर्वन्ति भैरवस्य निग्रहणं कुर्वन्ति इति समीचीनं महोदय समीचीनम् अस्तु रमजयन्ती भगिनी अन्तिमपरिच्छेदः एवं चातुर्येण इति
अस्तु महोदय एकं निमिषम् क्षम्यता महोदय वेर् शुड् ऐ स्टार्ट्
एवं चातुर्येण यत् भवती पठितवती तदेव तस्य अर्थः स्वशब्दैः वदतु
राजा रणजितसिंहः बहु चतुरः अस्ति तस्य क्लिष्ट समस्यानि चातुर्येण पूरयति
क्लिष्टान् समस्यान् क्षम्यतां भगिनि समस्या तु स्त्रीलिङ्गे अस्ति क्लिष्टां समस्याम् इति स्वीकुर्मः क्लिष्टां समस्यां
बहु चातुर्येण
सः निवारितवान्
सः निवारितवान् सः पञ्जाबस्य राजा आसीत् सः बहूनि सम्यक् कार्याणि कृतवान् स्म एकः कार्यम् अमृतसरः
एकः कार्यः
अमृतसरसी नगरे सुवर्णालयं निर्मितवान् बहु सुन्दर देवालयं सुवर्णालयं निर्मितवान्
सुवर्णालयम् अमृतसरसी सः एव निर्मितवान् बहु समीचीनमस्ति भगिनि अस्तु धन्यवादः अस्तु अत्र इदानीं कथां पूर्णतया पठितवन्तः अवगमनमपि अस्ति इति मन्ये अस्तु अतः अस्तु अतः समयः अपि जातः अद्य अग्रिमसप्ताहे अग्रिमवर्गे गीतासोपानमेव गत्वा तत्र किञ्चित् अग्रे गच्छामः प्रश्नः अस्ति वा भगिनि
महोदय इदानीं कथां भवान् रीथिङ्किङ्ग् अण्ड् रीआर्टिक्युलेटिङ्ग् बहु समीचीनम् अस्ति महोदय इत्युक्ते बहु सरलम्
मम चिन्तनम् एतत् अस्ति यदि केवलं गीतासोपानं कुर्मः चेत् तत् केवलं व्याकरणं किं किम् अस्ति इति तद्भवति प्रयोगः न भवति कथां पश्यामश्चेत् प्रयोगः किं वयं पठितवन्तः तस्य प्रयोगः कीदृशः भवति इति पश्यामः इति तावदेव अहं चिन्तितवान्. हा धन्यवादः भगिनि. अस्तु धन्यवादः भगिनि. अस्तु अग्रिमसप्ताहे गीतासोपानमेव पुनः कुर्मः. अस्तु अहं गृहपाठः किम् इति प्रेषयामि. प्रायशः पञ्चवाक्यानि लिखन्तु इति यत् कथा विषये कथायाः विषये एव तदेव प्रायशः भवति गृहपाठः. अहम् ईमेल् प्रेषयामि. अस्तु यदि अन्यप्रश्नः नास्ति चेत् विरमाम. प्रश्नः अस्ति वा?
महोदय अहं सूचनार्थं
इच्छामि.
सुवर्णालय अमृतसर यः अस्ति तस्य निर्माणं सिक्खगुरु पञ्चमगुरु अर्जुन देव कृतवान्, न तु राजा रञ्जीत सिंह. तस्य शासनकाले
केवलं तस्य शासनकाले एतत् अभवत्, किन्तु सः तस्य निर्माणं न कृतवान्. अस्तु भगिनि, धन्यवादः. कः कृतवान् भगिनि?
पञ्चमगुरु अर्जुनदेव, सिक्खगुरु.
सिक्खगुरु अस्तु.
पञ्चमं
गुरु
अस्तु. हा धन्यवादः भगिनि. हा सूचनार्थं
अर्जुन देव नामस्य गुरु
अर्जुन देव नाम. अस्तु अस्तु. हा समीचीनं. हा कथां पठित्वा वयं चिन्तयामः, वयं चिन्तयामः सः एव निर्मितवान् इति, किन्तु धन्यवादः. हा तस्य शासनकाले एतत् अभवत्. हा अस्तु धन्यवादः. धन्यवादः. अस्तु अग्रिमसप्ताहे मिलामः. सर्वेभ्यो नमस्कारः. अग्रिमसप्ताहे मिलामः.
नमस्कारः महोदय. धन्यवादः.
धन्यवादः. नमस्कारः. शुभरात्रि.